आनो विश्वाभिरूतिभिरस्वीरागच्छतम् युवम् दस्राहिरण्यवर्तनीपरम् सोम्यम् मधु आनूनम् जातमश्विना रथेन सूर्यत्वजा भुजीहिरण्यपेतसा कवी गम्भीरचेतसा आयातम् नहोरस्पर्याम्बरिक्षात्सु व्यक्तिभिः वाधो अश्विना मधुकन्वानाम् सवनेतुतम् आनो यातम् निरस्पर्याम्बरिक्षादध प्रिया गोत्रः कण्वस्य वाभिः सुषाव सोम्यम् मधु आनो यातमुपश्रुत्यश्विना सोमवीदये स्वाहा सोमस्य वर्धना प्रकवीधीतिभिर्नरा यच्छिद्धिवाम् पुनर्षयो जुहुरेव सेनरा आयातमश्विनागतमुपे माम् सुष्टुतिम् मम इवश्चिद्रोचनादध्यानो गन्तम् स्वर्विदा येभिर्वत्स प्रचेतसा स्तोमेभिर्हवनश्रुता किमन्ये पर्यादते स्म सोमेभिरश्विना पुत्रः कण्वस्य वामृषिर्गेर्भिर्वत्सो अविवृधत् आवाम् विप्रजिहावसे स्तोमेभिरश्विना अरिप्रावृत्रहन्तपाता नो भूतम् मयो भुवा आयद्वाम् योषनारथमतिष्ठद्वाजिनी वसु विश्वान्यश्विना युवम् प्रधीतान्यगच्छतम् अतः सहस्रनिर्निजारसेनायामस्विना मत्सो वाम् मधुमध्वजोऽसं सीकाव्यः कविः गुरुमन्द्रापूरोवसो मनोतरारजीनाम् ॐ मे अश्विना विममभिमन्ये अनुषाताम् आनो विश्वान्यश्विना धत्तम् राधाम् सह्रजा कृतम् न ऋत्यावतो मानोरीरथतम् निते यन्नासत्यापदावधि यद्वास्तो अध्यम्बरे अतः सहस्रनिर्निजारसेनायातमश्विना यो वाम् नासत्यावृषर्गेर्भिर्वत्सो अवीवृधत् तस्मै सहस्रनिर्निजमिषम् धत्तम् घृतस्तुतम् स्मादूर्जम् घृतस्तुतमस्विनागच्छतम् युवम् यो वाम् सुम्नाय दुष्टवद्वसूयाद्दारुणस्पति आनो गन्तम् निजादसेमम् स्तोमम् पुरुभुजा कृतम् नः सुश्रियो नरे मादातमभिष्टाये आवाम् विश्वाभिरुचिभिः प्रियमेधाहूषद दालम् दामध्वरा नामश्विनाजामहूदिषु आनो गन्तम् अयो भुवाश्विनासम्भुवा युवम् यो वाम् विपन्यो धीतिभिर्गेर्भिर्वत्सो अवीवृधत् याभिः कण्वम् मेधादिथिम् याभिर्वसम् दसव्रजम् याभिर्गोसर्यमावतम् ताभिर्नावतम् नरा याभिर्नरात्मसदुमावतम् कृत्वे धने ताभिष्वा अस्मानस्विना प्रावतम् वाजसातये प्रभाम् सोमाजुवृत्रजो गिरो वर्धन्तश्विना पुरद्रावृत्रहन्तपातानो भूतम् पुरुस्पृहा त्रीणि पदान्यश्विनोः राविस्सान्तिगुहाः परः कविरतस्य पद्माभिदर्वा जीवे बृहस्पति